दधिदुग्धकृतैः समाक्षिकैः सितया शर्करया समन्वितैः स्नापयामि तवाहमातराजजननी त्वां पुनरुष्णवारिपिः ये लोशीरसुवासितैः सकुमैर्गङ्गादितीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोतकैः मन्त्रान् वैदिकतान्त्रिकान् परिपठन् सानन्दमद्यातरात् स्नानं ते परिकल्पयामि जननी स्नेहात्वमङ्गीकुरु